सप्तदशमन्त्रस्य शाङ्करभाष्यः। अथेदानीं मम मरिष्यतो वायुः प्राणोऽध्यात्मपरिच्छेदं हित्वादिदैवतात्मानं सर्वात्मकम् अनिलम् अमृतं सूत्रात्मानं प्रतिपाद्यतामिति वाक्यशेषः। लिङ्गं च इदं ज्ञानकर्मसंस्कृतमुत्कामतित्विति द्रष्टव्यं मार्गयाचनसामर्थ्यात्। अथ इदं शरीरम् अग्नौ हुतं भस्मान्तं भूयात्। ओमिति यथोपासनम् ओम प्रतीकात्मकत्वात् सत्यात्मकमग्न्यारूख्यं ब्रह्माभेदेनोच्येते। हे क्रतोसङ्कल्पात्मकस्मर यन्मं स्मर्तव्यं तस्य कालोऽयं प्रत्युपस्थितो अतः स्मर क्रतोस्मर कृतस्मरेति पुनर्वचनम् आदरार्थम्।